Hello, I am Yogini Sunita, and this is Meditation, Yoga and Stuff podcast. I believe my dharma or my life's purpose is to share my understanding of meditation, yoga and Ayurveda, holistic healing science of India. I make these amazing wisdoms accessible and adaptable for present times. So let's start.
Hello and welcome to the podcast. Today I'm going to chant Gayatri Mantra 108 times. Let's start with what is Gayatri Mantra. Gayatri Mantra is a Vedic mantra which is considered one of the most powerful mantras. It is a very effective mantras. What it does is it creates positive energy. It also believes that it purifies us, and it is also believed that this mantra can invoke blessings of the divine power and help us seek knowledge, wisdom and spiritual enlightenment. And so chanting this mantra can create really amazing vibration which helps our mind and body. If you want to know more about mantra and Sanskrit language, I'm going to put a link for you in this podcast, so you can listen to that episode about Sanskrit mantras and how they create this powerful vibration. Gist of that episode is the vibration of our sound can help us create positive vibration in our whole being. Another few benefits of the Gayatri Mantra is it helps to calm our mind down. It helps us to increase our focus, improve our concentration. It's basically also really wonderful for mental health and also for our spiritual health as well. So if you are into mantras, this episode will help you to deepen your understanding of mantra. And if you're not into mantra, sometimes mantra kind of like chooses us. So there is a reason why you're here and why you need to hear this mantra. So trust in that and just listen. Or if you are walking or things like that, you can still listen to the mantra. It is a beautiful way to meditate. It will help you to calm your system down. It will also help you remove negative thoughts, negative energy and negative thoughts. It also helps, as I said earlier, promote our spiritual growth and development. So chanting mantra has so many benefits. And on top of that, Gayatri Mantra is really amazing. So we're going to start by if you are meditating with this mantra today, then sit comfortably, take all the support you need. You can just listen, or you can if you know the mantra, say it with me. And I suggest that 108 times. So 108 times, the beauty of that is that it works on all our whole being. And so feel free to sit down and let's begin our chanting.
Gayatri Mantra.
Om Bhur Bhuvasvaha Tasya Vitur Varenyam Bhargoho Devasya Dhimahi Tiyo Yona Prachodayat. Om Bhur Bhuvasvaha Tasya Vitur Varenyam Bhargoho Devasya Dhimahi Tiyo Yona Prachodayat. Om Bhur Bhuvasvaha Tasya Vitur Varenyam Bhargoho Devasya Dhimahi Tiyo Yona Prachodayat. Om Bhur Bhuvasvaha Tasya Vitur Varenyam Bhargoho Devasya Dhimahi Tiyo Yona Prachodayat. Om Bhur Bhuvasvaha Tasya Vitur Varenyam Bhargoho Devasya Dhimahi Tiyo Yona Prachodayat. Om Bhur Bhuvasvaha Tasya Vitur Varenyam Bhargoho Devasya Dhimahi Tiyo Yona Prachodayat. Om Bhur Bhuvasvaha Tasya Vitur Varenyam Bhargoho Devasya Dhimahi Tiyo Yona Prachodayat. Om Bhur Bhuvasvaha तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्वः तस्य विथुर्वरेण्यं भर्गोः देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ शान्ति शान्ति शान्तिः।
Thank you for tuning in. I really appreciate that you're taking this time out of your day. Don't forget to subscribe. Take care. Bye for now.